राम राम। आरूढ भक्ति गुण कुंचित भाव चाप युक्त शिव स्मरण बाण गणैर मोघैः निर्जित्य किल्बिष रिपून् विजयी सुधीन्द्रः सानन्दमावहति सुस्थिर राजलक्ष्मी ज्ञानाञ्जनेन समवेक्ष्यतमः प्रदेशम् भित्त्वा महाबलिभिरीश्वर नाम मन्त्रैः दिव्याश्रितं भुजगभूषणमुद्वहन्ति ये पादपद्ममिहते शिवते कृतार्थाः भूदारतामुदवहद्यदपेक्षया श्री भूदार एव किमतः सुमते लभस्व केदारमाकलितमुक्तिमहौषधीनाम् पादारविन्दभजनम् परमेश्वरस्य आशापाशक्लेशदुर्वासनादि भेदोद्युक्तैः दिव्यगन्धैरमन्दैः आशाशाटीकस्य पादारविन्दम् चेतः पेटीं वासितां मे तनोतु कल्याणिनं सरसचित्रगतिं सवेगं सर्वेङ्गितज्ञमनघं ध्रुवलक्षणाढ्यं चेतस्तुरङ्गमधिरुह्य चरस्मरारे नेतः समस्तजगतां वृषभाधिरूढ भक्तिर्महेश पद पुष्करमावसंती कादम्बिनीव कुरुते परितोषवर्षम् सम्पूरितो भवति यस्य मनस्कटाकः तज्जन्म सस्यमखिलं सफलं च नान्यत् बुद्धिस्थिर भवितुमीश्वर पाद पद्म सक्तावधूर्विरहिणीव सदा स्मरन्ति सद्भावना स्मरण दर्शन कीर्तनादि सम्मोहितेव शिव मन्त्र जपेन विन्ते सदुपचार विधिष्वनुबोधिताम् सविनयाम् सुहृदम् सदुपाश्रिताम् मम समुद्धर बुद्धिमिमां प्रभो वरगुणेन नवोढ वधूमिव नित्यं योगि मनः सरोजदल सञ्चारक्षमस्त्वत्क्रमः शम्भो तेन कथं कठोरयमरा वक्ष कवाटक्षतिः अत्यन्तं मृदुलम् त्वदङ्घ्रियुगलम् हा मे मनश्चिन्तयत् एतल्लोचन गोचरम् कुरु विभो हस्तेन संवाहये एष्यत्येष जनिम् मनोस्य कठिनम् तस्मिन्नटानि इति मद्रक्षायै गिरिसीम्नि कोमलपदन्यासः पुराभ्यासितः नो चेत् दिव्य गृहान्तरेषु सुमनस्तल्पेषु वेद्यादिषु प्रायः सत्सु शिलातलेषु नटनं शम्भो किमर्थं तव